कर रहे थे। शिक्षा वर्गस्य अष्टमः पाठः जुलै मासस्य द्वाविंशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गतवर्गे वयम् अभ्यासं कृतवन्तः सन्धीनां, जष्ट्व श्रुत्व स्तुत्व सन्धीनाम् अभ्यासः, ततश्च अनुस्वारसन्धिः ज्ञातः। काव्येषु भगवद्गीताश्लोकानाम् अध्ययनं कृतम्। सहेलिका प्रायेण नीचलोकस्य कःकरोतीह गर्वताम्। आदौ वर्णद्वयं कृत्वा हे वनवासिनः, तत्र कः नीचलोकस्य गर्वतां करोति इत्यत्र राह धनम् इत्यर्थः, वनवासिनः इत्यस्य शबराह इति उत्तरं प्राप्तम्। लौकिकन्याये वृद्धकुमारी वाक्यन्यायः ज्ञातः। एकेनैव कार्येण यदा बहूनि फलानि सिद्ध्यन्ति तत्र अयं न्यायः उपयुज्यते। तत्र अनुस्वारसन्धिः नियमः आसीत्। पदान्ते मकारः अस्ति, तस्मात् व्यञ्जने परे अनुस्वारः भवति। When makar is followed by a consonant, there is anuswara. So, kevalam padam asti chet anuswarah na bhavati. Vakyasya ante anuswarah na bhavati. Yadi agrimaha varanah, svara varanah, tarhi anuswarah na bhavati. Iti jnatavantah. Tatra abhyasah asit, kechana shlokah dattah, tatra कुत्र दोषः अस्ति इति ज्ञात्वा शोधनीयम् इति ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु।
नमस्ते। अन्नदानं परं दानं, दानम् अत्र मकारं न भवति, अनुस्वारः भवति यथा अग्रे व्यञ्जनमस्ति। विद्यादानम् अत्र अग्रे स्वरः अस्ति अतः मकारं भवति अतः परम्। अन्नेन क्षणिका तृप्ति तृप्तिर् यावज्जीवं च विद्यया।
अयं शुद्धः श्लोकः। अन्नदानं परं दानम् इत्यत्र अनुस्वारः विद्यादानमतः परम्। यु केन् रैट् इट् एस् विद्यादानम् वित् मकार एण्ड् देन् स्प्लिट् अकार, बट् यूजुवली वि जायिन् देम् टु गिव् इट् विद्यादानमतः परम्। अन्नेन क्षणिका तृप्तिः यावज्जीवन्त विद्यया। धन्यवादाः। प्रसिद्धः श्लोकः, अर्थः ज्ञायते। अन्नदानं परं दानं, श्रेष्ठं दानं, किन्तु अतः नाम अन्नदानादपि विद्यादानं परं श्रेष्ठतरम् अथवा ज्यायान् इत्यर्थः। किमर्थम्? अन्नेन क्षणिका तृप्तिः। इदानीम् अन्नं दीयते चेत् अद्यतनभोजनं भवति, पुनः मध्याह्ने बुभुक्षा बाधत एव, किन्तु यावज्जीवं च विद्यया, विद्या दीयते चेत् यावज्जीवं तृप्तिः भवति इत्यर्थः। अग्रिमः श्लोकः वेणु।
हरि ओम् भगिनि। कृपया परया विष्टो अन्निदम् अब्रवीत्। अन्निदम् मकार instead of anuswara because it's followed by swara. Drishtve మా దృష్వేమం సజ్జనం కృష్ణ దే అగైన్ అనుస్వర దృష్వేమం బికాస్ వ్యంజన ఇస్ దే యూత్సం యూత్సు సముపస్థితం సముపస్థితం ఇన్ ద ఎండ్ యు గెట్ మకార బికాస్ ఇట్స్ ఎండ్ ఆఫ్ ద సెంటెన్స్
రైట్ సమ్యక్ సో కృపయా పరయా విష్టో విషీదన్ ఇదం అబ్రవీత్ మకార నకార జాయింట్ ఫామ్ ఇదం అబ్రవీత్ దృష్వేమం ఇత్యత్ర అనుస్వార స్వజనం కృష్ణ యుయుత్సు సముపస్థితం ఇత్యత్ర మకార ధన్యవాదాః సో భగవద్గీతాయాః శ్లోకః సో భగవద్గీతా శ్లోకేషు అగ్రే ఏతదపి పశ్యామః సో అర్థం పశ్యామః సామాన్యతః అర్జునః సర్వాన్ కౌరవాన్ పాండవాంశ దృష్ట్వా కృపయా పరయా విష్టః తస్య మనసి విషాదః ఉత్పన్నః తదా ఏవం ఉక్తవాన్ ఏతం స్వజనం దృష్ట్వా యుయుత్సుం యుయుత్సుం నామ యోద్ధుం ఇచ్చుం ఏ యథా గంతుం ఇచ్చతి జిగమిషుః ఇత్యుచ్యతే ఏవం యోద్ధుం ఇచ్చతి యుయుత్సుః సో యుద్ధం కర్తుం ఇచ్ఛయా ఆగతాః ఏ సర్వే స్వజనాః తాన్ దృష్ట్వా ఇతి అగ్రే వదతి అగ్రిమ శ్లోకః సీత నారాయణ
ఆకాశాత్ పతితం సోయం యదా గచ్చతి పతితం సోయం తత్ర అనుస్వరః భవతి యదా గచ్చతి సాగరం తత్ర మకారః భవతి సర్వ దేవ నమస్కారః కేశవం ప్రతి గచ్చతి
ఆకాశాత్ పతితం తోయం యథా గచ్చతి సాగరం సర్వ దేవ నమస్కారః కేశవం ప్రతి గచ్చతి ధన్యవాదాః సరళ శ్లోకః యథా సర్వమపి జలం సాగరం ఉద్దిశ్య గచ్చతి తథా సర్వే ఏతర నమస్కారః సర్వాన్ దేవాన్ ఉద్దిశ్య కృతః నమస్కారః ఏకమేవ దేవం ప్రాప్నోతి ఇత్యర్థః మహేశ్వరి
దాతవ్యం ఇతి యద్ధానం దీయతేనుపకారేణ దేశే కాలే చ పాత్రే చ తద్ధానం సాత్వకం స్మృతం
టైపింగ్ ఎర్రర్ సాత్వికం స్మృతం
సాత్వికం స్మృతం దాతవ్యం అత్ర మకారః భవతి దాతవ్యం ఇతి యధానం దీయతే అనుపాక దీయతే దీయతేనుపకారేణ దేశే కారిణే దేశే కాలే చ పాత్రే చ తద్ధానం అత్ర మకారం అనుస్వారః భవతి సాద్వికం సాద్వికం అత్ర అపి మకార అనుస్వారః భవతి స్మృతం
ధన్యవాదాః సో దాతవ్యమితి యద్దానం దీయతేనుపకారిణే దేశే కాలే చ పాత్రే చ తద్దానం సాత్వికం స్మృతం సో సాత్వికం ఇది భవే సో దేర్ ఇస్ అ టైపింగ్ ఎర్రర్ సో స్మృతం అయమపి భగవద్గీతాయాః శ్లోకః సప్తదశ అధ్యాయే కథయతి సో దానం సాత్వికం దానం సో దానం త్రివిధం భవతి సాత్వికం రాజసికం తామసికం ఓకే సో సాత్వికం దానం కిం భవతి దాతవ్యం ఇది దీయతే సో దానం కరణీయం ఇది బుద్ధ్యా దీయతే నతు కిమపి ప్రాప్తుం ఇచ్ఛయా అనుపకారిణే దీయతే యహ అస్మాకం కిమపి ఉపకారం న కృతవాన్ తస్మై దీయతే कश्चित् अस्माकं साहाय्यं करोति अतः वयं तस्य कुर्मः इति चेत् तत् सात्विकं दानं न. सो दातव्यमिति यद्दानं दीयते अनुपकारिणे देशे काले च पात्रे च. सो दानस्य देशः युक्तः भवेत्, कालः युक्तः भवेत्, पात्रं सो पात्रम् इस् डिजर्विङ्ग्, द रिसिपियण्ट् आफ् द दान शुड् बि डिजर्विङ्ग्, वर्दि आफ् द दान. सो तादृशं दानं सात्विकं दानम् इत्युच्यते इत्यर्थः. पुस्तकस्था तु या विद्या.
पुस्तकस्था तु या विद्या अरहस्तगतं धनम्. अत्र मकारः भवति कार्यकाले समुपन्ने न साव्या न तद्धनम्. तद्धनं मकारः भवति.
सम्यक्. पुस्तकस्था तु या विद्या परहस्तगतं धनं कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् इति सुभाषितम्. सो या विद्या यद्ज्ञानं पुस्तकस्था पुस्तके एव अस्ति, सर्वमपि अस्ति अस्माभिः अधीतं, किन्तु किम् अधीतम् इति बुद्धौ न तिष्ठति, पुस्तके एव अस्ति. परहस्तगतं धनम् अस्माकं धनम् अन्यः कश्चित् स्वीकृतवान् अस्ति. तद्वयमपि कार्यकाले समुत्पन्ने यदा किञ्चित् साधनीयं भवति तदा न सा विद्या न तद्धनम्, तत् विद्यारूपेण परिगणितुं न शक्यते. झटिति कश्चित् किमपि पृच्छति, ओ वयं न जानीमः पुस्तकं द्रष्टव्यम् इति चेत् तत् वयं जानीमः इति वक्तुमेव न शक्नुमः. एवमेव धनम्, इदानीं किमपि क्रेतव्यं चेत् अस्माकं हस्ते धनमस्ति चेत् क्रेतुं शक्यते, अन्यस्य हस्ते अस्ति चेत् तदुपयुज्य वयं क्रेतुं न शक्नुमः. अतः कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्. प्रसिद्धः श्लोकः
मा निषाद मिथुनादेकं तत्र मकारं भवति अवधीः मकारः भवति अवधीः कामोहितम्.
सम्यक्. त्वम् एकम् इत्यत्र उभयत्र स्वरः अस्ति इत्यतः मकारः भवति. प्रतिष्ठाम् इत्यत्र अनुस्वारः. मानिषाद प्रतिष्ठां त्वमगमशाश्वती समाः यत्क्रौञ्च मिथुनादेकम् अवधीः काममोहितम्. रामायणस्य आरम्भः अत्रैव जातः. संस्कृत भाषायाः प्रथमं काव्यम् इति अयं श्लोकः स्मर्यते. वाल्मीकिमहर्षिणा व्याधं प्रति दत्तः शापः. सो निषाद, हे व्याध, त्वं शाश्वती समाः इत्युक्ते बहूनि वर्षाणि चिरकालं यावत् प्रतिष्ठां मा अगमः. सो प्रतिष्ठा इत्यस्य बहवः अर्थाः उच्यन्ते. समृद्धिम् अथवा एकस्मिन् स्थले स्थानम् इत्यादिकं मा प्राप्नुहि इति शापः. किमर्थं? क्रौञ्चमिथुनात् एकम् अवधीः. सो क्रौञ्चयोः मध्ये एकं काममोहितम्, एकं पक्षिणं हतवान्, तेन कारणेन एवं भवतु इति वाल्मीकिः व्याधं शप्तवान्. अविनाश्वैत.
नमस्ते महोदय. इन्द्रियाणां हि चरतां द मकार टु बि कन्वर्टेड् इन् टु अनुस्वार बिकास् इट् इस् फालोड् बै व्यञ्जना य. यन्मोन् अनुविध्यते तदस्य हरिति प्रज्ञां this also should be turned to anuswara, followed by vyanjana va, vayur navam. This anuswara to be converted into makara because it is followed by swara e. So vayur navam e ivambasi.
इंद्रियाणां हितरतां यन्मनोनु विधीयते तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि इति श्लोकः. सो अयमपि भगवद्गीतायाः श्लोकः. सो इंद्रियाणि सर्वत्र संचारं कुर्वन्ति, मनः अनुविधीयते. सो मनः तत्सर्वं यत्र यत्र इंद्रियं गच्छति तत्र सर्वत्र मनः चञ्चलः, चञ्चलं सन्, चञ्चलं सत् सञ्चरति. तदस्य हरति प्रज्ञां, तत् मनः यत् सर्वत्र सञ्चारं कुर्वत् यत् मनः, तत् प्रज्ञां हरति, विवेकम् अपहरति. किं करणीयं, किं न करणीयम् इति. कथं? वायुः नावम् इव अम्भसि, अम्भसि जले, नावं नौकां वायुः इव. जले काचित् नौका गच्छति, यदि वायुः सरभसं वाति तदा नौका नियन्त्रणं विना सर्वत्र गच्छति. सो लूसेस् कंट्रोल, इट् गोस् वेर् एवर् द विण्ड् टेक्स्. सो सिमिलर्लि द मैण्ड् फालोयिङ्ग् द सेन्सस्, सो इट् विल् टेक् अवे द प्रज्ञा, द एबिलिटि टु think and decide what is correct and what is not. So Bhagavad Gita yaha shloka ha? Ramakrishna Rao.
Vishadya vishayadham rutam
vishadapyamritam
vishayadham rutam amma should be converted to anuswara here. विकास व्यञ्जना अग्रे अस्ति. ग्राहाम् ग्राह्याम् आमोद्यादपि काञ्चनम् काञ्चनम् अमित्रादपि सद्रुताम् हियर् करेक्ट् करेक्ट् बालादपि सुभाषितम्
इस् द नो अदर एरर्.
अमित्रापि बालादपि
प्रथमपादे
प्रथमपादे काञ्चनम् लास्ट् वन् लास्ट् वन् काञ्चनम् नम् शुड् बि कन्वर्टेड् टु मकार.
ओके, एनिथिङ्ग् एल्स्?
अमोद्यापि ग्राह्याम् ग्राह्याम् मकार
अनुस्वारस्य मकारः अग्रे स्वरः अस्ति
अस्ति
काञ्चनं
मकार मकार.
धन्यवादः. सो विषादप्यमृतं ग्राह्यम्, अमेध्यादपि काञ्चनम्, अमित्रादपि सद्वृत्तं, बालादपि सुभाषितम् इति एकं सुभाषितम्. सो विषादपि अमृतं ग्राह्यम्. सो अमृतं विषस्य मध्ये अस्ति चेदपि स्वीकर्तव्यम्. अमेध्यादपि काञ्चनम्, काञ्चनम् नाम स्वर्णम्. अमेध्यम्, अमेध्यम् अपवित्रम्, किमपि मलिनं वस्तु तन्मध्ये पतितं चेदपि स्वर्णं स्वीकर्तव्यम्. स्वर्णस्य मूल्यं न अपगच्छति, अतः स्वीकृत्य शुद्धीकृत्य उपयोक्तुं शक्यते इत्यर्थः. अमित्रादपि सद्वृत्तम्, अमित्रः शत्रुः. सो शत्रोरपि सद्वृत्तम्, उत्तमगुणाः स्वीकर्तव्याः. बालादपि सुभाषितम्, कश्चित् लघु बालः चेदपि सुभाषितं वदति, उत्तमं वाक्यं वदति चेत् ग्राह्यं स्वीकर्तव्यम्. सो कः वदति अथवा कः करोति इति न द्रष्टव्यम्. उत्तमगुणाः यत्र कुत्रापि सन्ति तेषां स्वीकारः कर्तव्यः इत्यर्थः. अग्रे उषा
मनः
सुप्रभातं.
श्रूयते वा?
श्रूयते, वदतु.
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम प्रियं प्रियं य प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम अप्रियं सत्यम अप्रियं एतस्य पूर्वस्य मकारः अप्रियम् अत्रापि मकारः अन्ते अस्ति अतः प्रियं च अत्र अनुस्वारं व्यञ्जने परे नानृतं ब्रूयात् अत्रापि अत्र सुष्ठु अस्ति
सम्यक्
धन्यवादः
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियं प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः प्रसिद्धं सुभाषितं सत्यं वक्तव्यं प्रियमपि वक्तव्यम् अप्रियं सत्यं न वक्तव्यम् डिबेटेबल् नाट् आल् कान्टेक्स्ट् मे बि बट् सामान्यतः सो आन् द फेस् यु डोण्ट् से एन् अन्प्लेसेण्ट् ट्रूत् सो प्रियं च न अनृतं ब्रूयात् किन्तु अस्तु इति प्रियम् असत्यमपि न वक्तव्यम् So it is both ways. So don't tell a harsh truth directly or but that does not mean you can tell what is good to hear but not true. So priyam cha na andratam bruyat. Andratam asatyam ityarthah. Esha dharma sanatanah. Swami
Can you hear?
विष्णुपदासक्तं तं ऋषिं मां च पादुकां तथा शतचित्सज्ञा भच्चित्तविजयाद्ययोः वन्दे विष्णुपदासक्तं दक्षिणे अनुस्वार तं वयं ऋषिं सत्यं दट्स् गुड् च पादुकां शुड् बि बकार अट् दि एण्ड्
Okay. Any other? So, Tam Rishim is okay?
Tam, no, Tam. That should be. Maka Rishi is Baba. So, Tam is a Makara.
Huh. And then Tam.
Tam Cha, that should be Anuswara.
Anuswara. Padukha
is Makara.
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 Vande Vishnupada Saktam Tam Rishim Tam Cha Padukham. यथार्था शतचित्सम्या मच्चित्तविजयाद्ययोः सो वैष्णवसम्प्रदाये देशिकानां विषये श्लोकः सो वन्दे ऐ बो डौन् टु शतचित् दट् इस् अनदर् नेम् आफ् देशिका सो विष्णुपदासक्तं यः सर्वदा विष्णुपदे आसक्तः तं ऋषिं सो ऋषिसदृशः ऋषिभूतः सः तां च पादुकां तस्य पादुका सो मच्चित्तविजयात् सो शठजित् इति संज्ञा यथार्थ सो द नेम् शठजित् इस् एक्स्ट्रीम्लि अप्रोप्रियेट् सो शठजित् मीन्स् ही हू हेज् कोङ्कर्ड् शठ शठ इस् सम्बडी हू इस् एक्स्ट्रीम्लि स्टबर्न् सो शठजित् संज्ञा मच्चित्तविजयात् मम चित्तस्य विजयात् So because it has conquered my mind, which is extremely stubborn, so Shathajit iti namadheyam atyantam yuktam ityarthaha. So atra, so tam rishim rikaraha swaraha, ataha tatra makaraha bhavet, so anyatra anuswaraha, padukam ityatra makaraha. Antimaha shlokaha. Anybody has not tried so far? You can do even do it right now as well, even if you have not done it earlier. Pushpa, Vishwanathan.
Asadhya Nagari Divyam. अत्र मकारः भवति अतः फालो अभिषिक्ताय सीतया राजाधिराजाय रामभद्राय मङ्गलम् तत्र
हारः भवति. आसाद्य नगरीं दिव्याम् अभिषिक्ताय सीतया राजाधिराजराजाय रामभद्राय मङ्गलम्. सो दिव्याम् इत्यत्र अनुस्वारः न भवति, अग्रे अकारः अस्ति अतः मकारः. सो मङ्गलम् इत्यत्रापि मकारः. सो अत्र एकः परिष्कारः, क्षम्यताम्, पूर्वतनश्लोके शठजित् इति नम्माळ्वार् इति भगिनी कथयति. Extremely sorry. The source I gave, I mean, I particularly referred to it because I was not familiar with the Vaishnava term. So, Tatra Vedanta Deshika Haiti Aasi. Perhaps it was a mistake. Of course, it was an internet resource. So, I am Shlokaha Nammalvar Vishaye Shathajit Iti Namadheyam Iti Kathayati. Dhanyavadaha Bhagini. Okay. So, I think that's it. Any questions? So, the... Nagarim ityatra nam bhavati ityukte anuswaraha shuddhaha eva. Ito hi agre divyam iti swaraha asti. Ataha nagarim ityatra makaraha nam bhavati. So, anuswaraha eva. नगरीं दिव्यां, दिव्याम् इत्यत्रैव अग्रे स्वरः अस्ति इत्यतः मकारः भवति. अनुस्वारसन्धिः, सो यू शुड् हव् लर्न्ड् इट्. वी आर् गोयिङ्ग् टु लर्न् अनदर् सन्धि, परसवर्णसन्धि टुडे. Okay, sorry, the meaning of the last shloka. Now, uktaha. Etatu Ramasya Mangala Shasane Uchyate. So, Divyam Nagarim Asadhya. Asadhya Prapya Ityarthaha. Ayodhyam Prapya Sitaya Saha Abhishiktaya. Eha Abhishekam Praptavan. Rajadhi Raja Rajaya. Ramabhadraya Mangalam. So, Ramaya Mangalam Ityarthaha. Asadhya इत्यस्य प्राप्य इत्यर्थः. ओके, ईकारः स्वरः किल इति पृच्छ्यते. Nagarim, we look at what is following. This is Divyam, Dakaraha, Natu Ikaraha. So, Asadya Nagarim, Makaraha Asti, Agre Dakaraha Asti. So, since it is Dakara, it is Anuswara. The Ikara is before the Makara. दिव्याम् इत्यत्र तु दकारः आदौ अस्ति, अनन्तरम् इकारः. सो इट् इस् द दकार विच् इस् डिरेक्ट्लि फालोयिङ्ग् द ईकार. यु डोण्ट् सी हौ इट् इस् रिटन् एस् एन् इन् रैटिङ्ग् द इकार सिम्बल् मे बि सीन् फस्ट् बट् द लेटर् देर् इस् दकार. सो Anuswara Sandhihi. So, I request you to please practice this in all your Samskrita writing. Okay. So, the first thing, I mean, personally and even generally, if I look at anybody's Samskrita writing, so that is the first thing that catches the mind, to see if the thing has been written correctly or not. Okay. So, making known or, you know, errors, either because you don't know it or don't pay enough attention to it. So even though it may be correct otherwise, it gives the impression that you are not writing it correctly. Okay, so to write it correctly is very, very important. So bahutra drishtam asti, bahutra etadrishaha doshaha सर्वैः क्रियन्ते कृपया परिष्कृत्य लेखनसमये सावधानं लिखन्तु नियमः सरलः अग्रे व्यञ्जनम् अस्ति चेत् अनुस्वारः नो चेत् मकारः इत्येव सो दिस् अनुस्वारसन्धि अग्रे अद्य अधीयमानः परसवर्णसन्धिः सो उभयमपि अत्यन्तं मुख्यं सो एक्स्ट्रीम्लि इम्पार्टेण्ट् फ्रोम् द पॉइंट ऑफ व्यू ऑफ राइटिंग संस्कृत करेक्टली सो अद्य संधि पश्यामः परसवर्ण संधि अस्माभिः ज्ञातम् अग्रे व्यञ्जनम् अस्ति चेत् अनुस्वारः भवति सो तस्य अनुस्वारस्य परसवर्णः भवति परसवर्णः इत्युक्ते अनुनासिकस्वरः सो द लास्ट् लेटर् आफ् द वर्ग सो इफ् द फालोयिङ्ग् व्यञ्जन इस् कवर्ग कवर्गस्य व्यञ्जनं भवति चेत् अनुस्वारस्य स्थाने कवर्गपञ्चमः ङकारः भवति एवं चवर्गस्य व्यञ्जनानि सन्ति चेत् ण्यकारः टवर्गव्यञ्जनानि सन्ति चेत् णकारः तवर्गव्यञ्जनानि सन्ति चेत् नकारः पवर्गव्यञ्जनानि सन्ति चेत् मकारः सो वर्गीयव्यञ्जनेषु तत्तद्वर्गस्य पञ्चमः वर्णः आदेशः भवति यावरलव शशतः तत्र त्रिषु परेषु य ल व सो एतेषु परेषु अनुनासिकः ञ ल व सो दीस् त्री लेटर्स् हाव् एन् अनुनासिक वेरैटि सो य इस् प्रनौन्स्ड् विथौट् नेसल् ञ is with nasal so la la va va so there is a nasal variety anunasikah varnah asti sah adeshah bhavati so I am purva savarna para savarna santhi so para savarna basically means the anunasika letter so for vargiya vyanjanas it is the last letter of the varga so for ya va la we have an anunasika letter itself so saha adeshah bhavati iti parasavarna sandhihe niyamah so parasavarna sandhihi kvachit vikalpena bhavati kutrachit nityah bhavati so in some places parasavarna is compulsory in some places it is optional So it is very important to know where it is compulsory because there you will have to do it. Yatra vikalpah asti, tatra you have a choice. Kintu yatra nityah, tatra nishchayena kartavyam. Ataha adya parasavarna sandhim janimah. Kutra vikalpah, kutra nityah. So prathamah niyamah, padante vikalpah. यदि पदद्वयं भिन्नं भिन्नम् अस्ति तत्र परसवर्णः विकल्पः इत्युच्यते विकल्पः इत्यस्य आप्शनल् इत्यर्थः सो यथा अहं करोमि इत्यस्ति अहं मकारस्य अनुस्वारः जातः सो अनुस्वार हस् बीन् डन् बै अनुस्वारसन्धि इदानीम् अनुस्वारस्य ककारे परे कवर्गः अतः कवर्गस्य पञ्चमवर्णः नकारः अहं करोमि इति नकारः आदेशः भवति अयं परसवर्णसन्धिः सो सिन्स् दिस् इस् पदान्त भिन्नं पदम् इत्यतः अहं करोमि इति अनुस्वारः अपि शुद्धः सो अनुस्वार इस् आल्सो करेक्ट् यु आल्सो हाव् अ फार्म् वित् द परसवर्ण सामान्यतः श्लोकानां कथने सो भिन्नं पदम् अस्ति चेदपि तत्र परसवर्णः क्रियते सो उच्चारणस्य अभ्यासः यैः कृतः वेदानाम् उच्चारणे वा श्लोकानाम् उच्चारणे वा परसवर्णः क्रियते उच्चारणसमये सो त्वं चलसि इत्यस्ति सो चकारः चवर्गस्य वर्णः अतः अनुस्वारस्य ञकारः त्वं चलसि अथवा त्वं चलसि तं damarum. So dakaraha tavargavarnaha. So tasya panchamakshara tandamarum tam damarum. So nadim tarati. So takaraha sti ataha anusvarasya nakaraha bhavati. Nadim tarati athava nadim tarati. Patham pathati. So agre pakaraha sti ataha patham pathati makaraha or patham pathati. So padante parasavarnaha vikalpaha. So it is optional. So writing you can retain the anuswara kintu uccharane vishishya shlokanam uccharanam yada kriyate yatha manishada pratishthantvam tatra nakarasyaiva uccharanam kriyate pratishthantvam agamashashvati samaha ityadi anyatra etra etra drishtam tatra anuswarasya sthane parasavarnasya prayogaha vishishya uccharane kriyate kintu it's optional. So you can write it with anuswara. Okay. So patam patati ityatra si maya gatavarge uktam anuswarasya makarasya uccharane bhedaha asti bhavet yadyapi vayam kurmaha va na va bhedaha bhavet anuswaraha bhinnaha varnaha makaraha bhinnaha. So here the original might have been makara, so patham patati, so then it becomes anuswara and then reconverts to makara. Okay. So parasavarnaha bhavati se patham patati iti makaraha oshtyavarnaha, pronounced with the mouth by bringing the lips together. Patham patati ityatra oshtayohu prayogaha na kriyate tatra anuswaraha. It is a pure nasal tone. Tathaiva ya va la tatrapi parasavarna santihi bhavati. Gramam yati. Gramayati. So gramayya ityatra yakaraha. Anunasikaha yakaraha. Gramayati or gramam yati. So, dhanam labhate, dhalal labhate, dhanal lakaraha anunasikaha, dhanal labhate, dhanam labhate. So, satyam vadati, so satyam vadati, satyam v iti anunasikaha vakaraha, satyam vadati, satyam vadati. So ya va la eteshu pareshu anunasikaha ya va da adeshaha bhavati. Okay. So padante parasavarna santihi vikalpaha vikalpena bhavati. So that is the first case where we find parasavarna and it is optional in this case. Upasarge api parasavarna sandhihi vikalpaha. There is an upasarga, actually only one upasarga, which is sam iti upasargaha. Tatra makaraha asti, makarasya anuswaraha bhavati, tatra api parasavarnaha vikalpena bhavati. So, sankhya ityasti. Uccharanam, pashyantu uccharanam asmabhihi parasavarnasyaiva uccharanam kriyate. So nobody says this as samkhya. It is sankhya ityatra. Sahaja taya uccharanam. It is parasavarna. Lekhanetu ubhayathapi lekhanam kriyate. So there are both forms. So parasavarnaha kriyate chet ngakaraha likhyate. No chet anuswaraha likhyate. Sankhya. Samkhya. Sam. Charaha. So sancharaha samcharaha samtikate. So santikate samtikate samdarshanam. So sandarshanam samdarshanam. sambhavah, sambhavah. So, ubhayatha api asti. So, when for the upasarga sam, tatra parasavarnah vikalpena bhavati. So, it is not a different rule from the earlier one. It is just that upasarga is also a pada. So, this is also padanta, ataha padante vikalpaha ityeva niyamaha. Kintu, vayam tu ekameva padam pashyamaha. We generally see sankhya as a single word. Ataha prithag uchyate. So, sam iti upasargaha yatra asti, tatra parasavarnaha vikalpena bhavati. So, wherever possible. So, parasavarna, as you saw in the rule, so it can be done only when followed by the vargiya vyanjana or ya, va, la. So, anyeshu vyanjaneshu pareshu, sha, sha, saha, ityeteshu pareshu, parasavarnaha na bhavati. There is no parasavarna when followed by sha, sha, saha. Ataha, samskritam iti yada asti, tada tatra parasavarna na bhavati. So there is no parasavarna there. Okay. So santi kate ityasya kaha arthaha iti prichyati. So samyak tikate, tikate nama gachyati ityarthaha. Samyak gachyati, sangachyate ityasya yaha arthaha, sa eva arthaha. Okay. So upasarge vikalpaha asti. So sanyogaha, samyogaha. So sanyogaha, samyogaha, ubhayathapi asti. So samlapaha, sallapaha, samlapaha, samvadaha, samvadaha. So ya, va, la, eteshu pareshu vikalpena ya, va, la iti bhavati. So upasarge asti chet parasavarna santhihi vikalpaha. So tritiyam samasaha asti chet. So if it is a samasta pada, where again the two words are different, tatra purva padante, at the end of the purva pada. Okay. So yatha bhayankaraha ityasti, bhayam karoti. So bhayam iti ekam padam, kara iti aparam padam. So tatra bhayankaraha, so parasavarnaha bhavati, athava anuswaraha, bhayam karaha. So shatrunjayaha, shatrunjayaha. So yaha shatrunjayati, saha shatrunjayaha. So tatrati parasavarnaha vikalpaha. Arindamaha, arindamaha. So arindam nama, it's a popular name. So tatra arin damati. So that is again he who controls or defeats the enemies ityarthaha. So tatra api parasavarnaha vikalpaha. Right? So all these are examples where parasavarna is optional. So actually it is only one rule. Padante parasavarnaha vikalpaha, at the end of a pada. So it could be two separate padas, or it could be upasarga and dhatu, or it could be two separate words in a samasta pada. So in all case, padante parasavarnaha vikalpaha. Kintu padasya madhye ekameva padam tasya madhye parasavarnaha nityaha. Shanka ityasti. So edhatuhu shaki iti dhatuhu. So tatra madhye shanka. So ngakaraha eva bhavati. Kunchitaha. Kunchita is that which is shrunken ityarthaha. So shanka, doubt. Okay. Mundanam. So mundanam. So shaving of the head is called mundanam. Shantaha. kampate. So all these are single words, right? So tatra parasavaranaha eva bhavati. So atra sarvatra anuswarasya lekhanam. So writing it in this way, using an anuswara in between is wrong. So atra sarvatra api parasavaranaha vargasya panchamaksharam lekhaniyam eva. Okay. So vargasya panchamaksharasya eva upayogaha kartavyaha. So in within a single word, parasavarna is compulsory. So Hindi bhashayam evam likhyate yuktam api. Hindi bhashayaha niyamaha tatha. So shanka iti evam eva likhyate. Kintu samskrite tat shuddham na. So even though it looks the same, it is not correct. So padasya madhye parasavarna sandhihi nityaha bhavati. So it is compulsorily found. So padamadhye anuswaraha kutra bhavati. So where in Sanskrit can we find anuswara within a word? It's very very limited. Okay. So sha sha saha ete varanaha santi chet bhavati. Yatha am shaha ham saha simhaha ityadishu bhavati. So if the following letter is sha sa ha, very rarely you find words with sha. So tatra anuswaraha padasya madhye drishyate. So sam iti upasargaha chet bhavati. So yatha uktam parasavarnaha, it is optional. So in the first case sha sha sa ha, there is no parasavarna, so you have to write it with anuswara. So sam iti upasargaha asti chet anuswaraha lekhitum shakyate. You can either write it with parasavarna or with anuswara. So samase purva padantah chet. So as I said, within a samasa, if it is two separate words, say shankaraha sham karoti, so two different words. So bhayankaraha, so etadrishasthale madhye anuswaraha bhavitum arhati. So anyatra padamadhye anuswaraha samskrate ashuddhah. So in cases other than these, so especially if it is not a samasa, not the upasarga sam, so padasya madhye anuswaraha na lekhaniyaha na bhavati parasavarnaha eva bhavati iti niyamaha. Okay. So idanim prashnaah santi. Just a moment. Okay. Samskritam tatra sam plus kritam kimartham parasavarnaha nasti. Sam plus kritam na sam plus skritam sakara hasti kila madhye. So sakara is brought in. Even though it is originally sam and kritam, there is a sakara added. And after the sakara is added, there is no parasavarna. So samskritam ityatra anuswaraha eva tasya uccharanam katham kriyate iti chet, you have to close your mouth and pronounce the anuswara with the nose. It is not oshtha. You don't bring your lips together like makara. It is just that the tone should come from the nose. That is anuswara. Iti yada nasikaya uccharanam kriyate saha anuswara. Okay. Samasaha namakaha. So it's a very difficult thing. So we'll actually learn samasas in the next level, which is Kovida. So in short, samasa is where two words join together to form a single word. Sita yaha patihi, Sita patihi iti kriyate saha samasa. So padanam yojanam samasa. सो भयंकरः तत्र भयम् इति एकं पदम् अस्ति कर इति अपरं पदम् अस्ति सो मिलित्वा एकं पदं भयंकरः इति सो दट् इस् समास सो मोर् देन् दट् वी विल् लर्न् लेटर् ओके सो नेक्स्ट् क्वेश्चन् इस् संस्कृतम् इति समासः इफ् दट् इस् द केस् परसवर्ण इस् आप्शनल् Yes, I mean, it is a samasa, so parasavarna could be optional, but when there is sakara, there is no parasavarna. You cannot do a parasavarna when there is sakara following the anuswara. If it is sha, sha, sa, ha, so whether it is samasa, no samasa, end of a pada, no pada, you cannot do parasavarna. Parasavarna ha kada bhavati. The first requirement for parasavarna is to have a vargiya vyanjana or yavala. सो श श सः एते वर्णाः सन्ति चेत् समासो वा भवतु पदान्तं वा भवतु पदमध्ये वा भवतु कुत्रापि परसवर्णः न भवति देर् इस् नो परसवर्ण इफ् द फालोयिङ्ग् लेटर् इस् श श सः द क्वश्चन् आफ् वेदर् परसवर्ण हेपन्स् कम्स् ओन्लि इफ् देर् आर् अदर् लेटर्स् द वर्गीय व्यञ्जनस् आर् य व ल सो तत्र नियमः पदान्ते विकल्पः पदमध्ये नित्यः एनि अदर् क्वश्चन् सो आर् दीस् हेण्ड्स् रेस्ड् फार् क्वश्चन्स् आर् फार् Ramakrishna Rao, you know, right? You have a question? Krishna has Diva?
No.
Okay.
Nasti, nasti.
So please raise your hands if you have a question. I'll put everybody's hands down. So Prashna Asti Chet Hastam. If you have any questions directly related to this, please, right now. Okay. Yes, Vijay Raghavan Mahalaya.
Guru Bhavati Chet.
Huh?
Guru, Yara, Lava, Ra Bhavati
Chet. Tatra Samanyataha Makaraha Eva Bhavati.
Makaraha.
There is no parasavarna for repha also. So.
Yes, thank you. I've seen the phrase Sanskrita Samstana pronounced as Sanskrita with a N and other Samstana. Is it just Hindi or is it, it should be a Shuddha?
The effect of regional languages. There is no Nakara there. Yeah.
Okay.
Rao. Mangipuri.
Yeah, I have a question. Can you hear me?
Yeah.
Okay. You know, in the earlier slide where you showed Sam, Ka, those first five, I don't know whether they're letters or words, what are they? And then, you know.
It is just within a word, there are different parts, they're not even parts. So when you're deriving the word Shanka, in between you'll find a stage. Where there is anuswara and then the anuswara is converted to ngakara. Because so derivation of words is a long process. That is, you have the prakriti and you have the pratyaya and you go on doing a series of conversions.
I went through all that with you, but you know, sham, kum, mum, sham, kam.
They are nothing, as in they are not independent particles.
Then why should we put them?
I mean, it happens. They are not independent particles, but Shaki is a dhatu where you get a nakara, so it becomes sha, nuk. Then the nakara becomes anuswara. So you have sha, anuswara, and k.
So what you are saying is, sham, kum, mum, those things, I mean, they don't have existence by themselves, but in the world, shanka, kunchitaha, mundanam, shantaha, kampate, because there are the fifth parsavarnas. So if you separate them into two particles, then you should have the anuswara and not the panchamaswara of the vargiya, right?
Right.
Okay, so you can, I mean, there is no sam and
you will not see them in usage. It is not seen in usage. Theoretically, it happens. The sandhi is happening there.
Because as far as my knowledge goes, in the last 6-7 years, I never heard this sam.
It's not there. That's what, they are not there in usage. It is only theoretical, this one.
Yeah, it's a theoretical example.
I mean, it happens according to the prakriya of grammar. So you will not see them independently in usage. So that is why I am saying it is compulsory. The parasavarna is compulsory.
So you see only the those five words after the equal sign. Shankha, kunchitaha, mundanam, shantaha, kampadaya. But you don't see the first two words by themselves. Very, very unusual to see them by themselves.
You will not see them. Impossible. You will never see them.
Okay. Okay, that's the question I have, because that threw me off completely.
Yeah. Maheshwari?
Nasti, Bhagini.
Prashna
Nasti.
Okay. Avinash Vaidya?
I have a similar question about R. I think he's already answered.
Okay.
That's Rakara.
रेफे परे अपि परसवर्णः न भवति. किशोर महोदय,
सुप्रभातम्. गंगा आनंद बोथ ऑफ देम आर परसवर्ण संधि एग्जांपल्स.
यस.
ओके, थैंक यू.
पद्मनाभन अय्यर महोदय.
ओ, आई डोंट हैव अ क्वेश्चन. समहाउ आई थिंक आई आस्क्ड एंड यू आंसर्ड इट.
ओके, फाइन, नो प्रॉब्लम. Ramanath Mohore.
On the other slide where you said sam iti, next slide. Next one. The last slide, I think, where we stopped. Sam iti upasargas chet sam kulaha. So here, samkulaha, sannyasaha, maybe explain my problem best. So what are these examples? Because kavarga is there.
Parasavarna is optional. So you can have a form with anuswara. The other form is sankulaha with nakara. And double nakara. Sannyasaha is sa, double nakara, yasaha.
Okay. Okay.
But since parasavarna is optional, you can have anuswara there.
Anuswara. Oh, okay. Thanks.
Yeah. So there's one more question, a very important question, perhaps. What happens when there is a sanyuktakshara? Say, sankshepaha. So you have some ankshepaha. So what happens if there is sanyuktakshara? So not just here, anywhere in sandhi. So if there is sanyuktakshara, we take the first component of the sanyuktakshara. So, kshetra, if you have ksha, so it is actually kakara. So, ka and sha joined is ksha. So, ksha is actually ksh. So, if we write it separately, it is actually just k and sh. So, whatever happens when there is kakara will also happen when there is ksha. So you can either write it as sankshepaha with ngakara. So sankshepaha, okay. Or with the anuswara. So you can have it with sankshepaha, okay. So ubhayatha api bhavati. So but the general rule in all sanyuktakshara is we take the first component, that's it. I mean, that is what is actually there. So lekhane bhedaha bhavet kintu tatra vastutaha prathamah varnaha eva. So अस्तु इदानीं अभ्यासः सो ओके सो देयर इज अ पेयर ऑफ वर्ड्स सो अत्र किं शुद्धम् इति चेतव्यम् सो वाट् इज करेक्ट किं रूपं शुद्धम् इति चेतव्यम् सो ये वक्तुम् इच्छन्ति कृपया हस्तम् उन्नयन्तु सो एकैकं वदन्तु राम रामानुजम्
नमस्ते
गंगा
गंगा द राइट साइड इज शुद्धम्
सो गंगा द अनुस्वार सॉरी द परसवर्ण form is correct so writing ganga with anuswara is wrong so ganga iti ekameva padam tatra parasavarnaha bhavati okay dhanyavadaha sorry you have a question
no I'm fine thank you
mahalakshmi
right side is correct
digambaraha सो अम्बरः तत्रापि एकमेव पदं सो पदस्य मध्ये अतः दिगम्बरः इति मकारः शुद्धः अविनाश वैद्य
संध्या ऑन द राइट साइड इज करेक्ट नो नकार
दिस वन इज रॉन्ग
बिकॉज Why? Because this is one word only, na? Some sandhya. Yeah, it is sandhya is only one word. So it is the first is correct. Left side is correct. I understood. And sandhya, how it is correct? This other because this is
some.
This
some.
It is upasarga.
Yeah, some is the upasarga. So if upasarga. It is wherever it is upasarga, it is correct. Okay. So my intention was with that. It is correct. Okay.
Thanks.
Santhanam.
Santhanam.
All such cases where some is the upasarga, it is correct.
Upasarga.
Right. Okay. So next, Ravi Kiran. Ravi Kiran, na shruyate.
It is Vande on the right side.
Vande with the parasavarna. Vande ityeva shuddham. Samyak. Okay. Sulochana. Agaram.
Araga is correct. Palm to right side.
Right side, Makara?
Makara.
Katham?
Palm upasarga?
Palm upasarga. No.
Then, first word, palm. Palms.
The only upasarga is sam. Okay, so there are no other upasargas ending in Makara. And anyway, Sakara is does not qualify for parasavarna. Yatra sakaraha asti, tatra parasavarnaha na bhavati. So it is always anuswara before a sakara. So pam suhu ityatra anuswaraha eva bhavati. Pam suhu ityasya dhulihi ityathaha. Okay, so it is dust is called pam suhu. Okay. So next, a few more examples. Shriram Krishnamurti. Nashruyate Mahalaya. Shriram. Shobha Nadik.
Ubhavapi samichinameva sammelanam
so sammelanam iti ubhayam shuddham because it is the upasarga sam dhanyavadah swaminathan
panjaram right hand side
So panjaram swatra parasavarnaha eva bhavati. Samyak. Usha.
Aham gachati.
Gachami.
Aham gachami. Right hand side.
Kevalam tadeva shrutva.
Dvayoho karanam atra padante asti na tu madhye.
So, ubhayam shuddham.
Ubhayam shuddham.
Both are correct.
Both are
aham gachami, aham gachami.
Aham gachami.
Ubhayam shuddham. See, parasavarna is always correct except if it is shashasaha ra. Okay, so there is no doubt about parasavarna being correct except if it is sakara, shashasaha or ra. So, sarvatra parasavarnaha shuddhaha, anusvaraha kutra shuddhaha, kutra na shuddhaha iti jnatavyam. Okay. So, Rao Mohanai.
Yeah. Maam palaya, maam palaya, dividam suddham.
Samyak. So, maam palaya, ubhayam api suddham. So, padante vikalpaha. So, both of them are correct. Okay. Ramakrishna Rao Mohanai.
Right side is correct.
So, amba. So, ekameva padam tatra madhye makaraha bhavati. Okay. Rahul Mahadeva, prashna hasti va?
Samyatam, aduna bhavati uktavati asit etad shasaha vihaya. Yatra kutrati makaraha shruyate, tatra purva rupa
parasavarnaha.
Parasavarnaha bhavati iti shimitam. Kintu panjaram atratu chakarasya eva paravarane asti kalu.
Tatra kaha sandehaha. Shashasaha atitya, other than shashasaha, ekopi varnaha astite parasavarnaha bhavati iti uktam. So parasavarnaha shuddhaha. Ja, jakarah kila.
Am, kintu vamatah yat asti panjaram iti. Tatra kim ashuddham asti?
Padasya madhye parasavarnaha nityaha. So within a single word, you have to compulsorily make the parasavarna.
Oh, astu. Dhanyavada. Shamyatam.
Okay. Any questions? So, actually, that is all I have planned for today. So, before we go, there was one more slide. Just 1 second. Okay, so it comes after. So, I will quickly run through it. So, anuswara sandhihi jnataha. Vyanjanam asti chet anuswaraha bhavati. Tasya anuswarasya parasavarnaha bhavati. Yada vargiya vyanjanam asti tada vargasya panchamah varnaha ya va la eteshu pareshu anunasikah ya va la. So parasavarnaha bhavati saha parasavarnaha padante vikalpah. So at the end of a pada it is vikalpa. So it can be two separate words or in a samasa two different words. Upasargah sam iti upasargasya vishaye vikalpena parasavarnaha bhavati. Pada madhye tu nityam parasavarnaha bhavati. Okay. So it is compulsory in between a word and it is optional at the end of a pada. Okay. So with this there is one small online questionnaire. So 10 questions. 10 or 15 minutes, you can take it. So it's an online this on parasavarna. So it is very simple. It is all multiple choice. You just have to select which is correct. Okay. All forms which are correct. Okay. So this is the link. So I'll also send you the link in the chat. So please go to this link and fill in the form. Okay. So I'll send you the link by chat. So it will take you hardly 10 minutes. So there are 10 questions on Parasavarna. You just have to select which of the forms are correct. So at the end, you will be able to see the answers yourself. You will also receive it in your email. So it's just a quick take on if we have understood today's thing correctly. Okay. So before I leave for that, there's just one question which I want to answer. So Digambaraha, is it not a samasa? Iti drishtam. So asmabhihi atrikrati drishtam Digambaraha ityatra etadeva shuddham iti. It is a samasa, but makara is not at the end of the samasa. It is dik ambaraha. So the anuswara there is within the word called ambara. Okay. It is not between two words. Like in bhayankaraha, bhayam is one word and kara is another. It is not digam and bara. It is dik and ambara. So ambara there is a single word and therefore parasavarna is compulsory. Okay. So I think there should be no more questions. So I'll send this link by chat. So I sent it by chat. So please visit that link and fill in the form. So it is just, it will take the remaining time of this class. So 10 minutes. That's it. Okay. Please see if you are able to access the link. Okay. So this is how you will see it. So there is a test. You just have to put your email address and then enter the So I hope everybody is able to access the test, and many of you might have completed by now. So I think you can leave. If you have got your results, you will also receive the responses by email. And so you can look at them. I think it should be clear. It's just the same thing that we discussed today. So if you have any questions, you can either email me or ask them in the next class. Okay. So you may leave the webinar if you are done. So, okay, some people have raised about verification. I think it's a Google thing where you have to select some images. That's unfortunately an automatic this one, which Google gives sometimes. I don't know what to do over it because it's not with this one. It's just you'll have to select some images probably. That's the kind of verification it gives. Unfortunately, I don't see a way out of it because it's Google Forms. Yeah.
Namaste, Vanya. I have a question which is not quite related to this, maybe somewhat. In the word Sanskrita, the Sakara, is that another Sandhi?
Yes, it is. We don't call it a Sandhi, but yeah, it is Sakara is an Agama. So when Sam is followed by Krita, you get the Sakara Agama.
Okay, because I was looking through all the Vyanjana Sandhis in the lessons. I couldn't find anything that brings the Sakara.
What we study as Sandhis usually is what we see in what to say, common, this one, especially between words. There are actually many more Sandhis which happen between words. Which we don't teach them as Sandhis because unless you know the prakriya or how we are deriving the word, it would not be able to appreciate it. So, like Samskratam. So, it's a series of changes which happens in between there. So, you will not find that in the normal list of Sandhis.
Okay.
Even though it is a change, it's not a normal Sandhi which happens.
Okay. Okay. Thank you.
So I think I'll close the webinar now. So you should be able to do the test. The test that the form will be open. So if in case you were not able to submit it, I'll also put it up as a PDF with the answers. Okay, so that will also be uploaded after the this one, in case you are unable to submit it. So you can refer to that document and find out the answers. Okay. So dhanyavadaha. Gururev gatir gurumeva bhaje gurunaiva sahasminamo gurave na guroh paramam shishurasmi guror matirasti gurau mamapahi guroh.